इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी श्रीलंकादेशीयः राष्ट्रपतिः अनुरा कुमार दिसानायके इत्यसौ च अद्य श्रीलंकायाः अनुराधापुरायां महत्वपूर्णानां रेलवे परियोजनानां उद्घाटनं करिष्यतः। प्रधानमन्त्रिणः श्रीमोदिनः इयं श्रीलंकादेशस्य राजकीय यात्रा अस्मै द्वीपाय अस्याभ्यान्तरे च सम्पर्क सौविध्याय एका कीर्तिमान संभृता यात्रा वर्तते। स्वघोषणानुसारं प्रधानमन्त्री श्रीमोदी श्रीलंकादेशस्य च राष्ट्रपतिः अनुराधापुरायां बहुप्रतीक्षितायाः माहो उमान्थाई इत्येतस्याः रेलपट्टिकायाः उद्घाटनं विधास्यतः। 91.27 मिलियन डॉलर परिमितेन भारतीय सहाय्येन विकसिता इयं रेलवे पट्टिका अस्य द्वीपराष्ट्रस्य उत्तरीय भागं राजधान्या कोलंबो इत्यनया सह संयोजयति। प्रधानमन्त्री नरेन्द्रमोदी अद्य तमिलनाडु राज्यं प्रति यास्यति। तत्रासौ रामनवम्याः पुण्यावसरे रामेश्वरम् स्थलं मुख्यभूम्या संयोज्यमानस्य नवीनस्य पम्बन रेलसेतोः उद्घाटनं विधास्यति। अयं रेलसेतुः वास्तुकलायाः एकः अद्भुतः प्रतिदर्शो विद्यते। यो हि देशस्य प्रथमः वर्टिकल लिफ्ट इति ऊर्ध्वाधरोन्नयन सागरीय सेतुः भविष्यति, यस्य परिमाणं 2 किलोमीटर परिमितं यावत् वर्तते। अत्रावधौ प्रधानमन्त्री मार्गसेतोः एकस्मै रेलयानाय जलपोताय च हरितध्वजं प्रदर्शयिष्यति, अथ च सेतुसञ्चालनं द्रक्ष्यति। राष्ट्रपति पदासीना द्रौपदी मुर्मुः 25,000 वक्फ संशोधन विधेयकाय स्वस्वीकृतिं प्रदत्तवती। विधेयकमिदम् अस्मिन् सप्ताहे संसदा पारिता। संसदा पारितम् राष्ट्रपतेः सहमत्याः अनन्तरम् अयं विधिः जातः। गुरुवासरे लोकसभायाम् अस्मै विधेयकाय 88,200 सदस्यैः समर्थनं प्रदत्तम्, 32 सदस्यैः विरोधः प्रकटितः। तत्रैव शुक्रवासरे राज्यसभायाम् 28,100 संख्यकैः सदस्यैः समर्थने अपि च 90 संख्यकाः सदस्याः विरोधं ख्यापितवन्तः। राष्ट्रपतिना मुसलमान वक्फ निरसन विधेयकाय अपि स्वीकृतिः प्रदत्ता। अशेषे हि देशे अद्य रामनवमी धार्मिक श्रद्धया सह आमान्यते। पुण्योत्सवः अयं भगवतः विष्णोः सप्तमस्य अवतारस्य भगवतः श्रीरामस्य जन्मनः प्रतीको विद्यते। चैत्रमासस्य नवमे दिवसे रामनवमी इत्युत्सवः आमान्यते। रामनवम्याः पुण्यावसरात् पूर्वं ह्यः सन्ध्यायां राष्ट्रपतिः द्रौपदी मुर्मुः जनेभ्यः अस्मै शुभावसराय शुभकामनाः प्रकटितः। राष्ट्रपतिना निगदितं यत् भगवतः श्रीरामस्य भव्या जीवनयात्रा सर्वान् जनान् सत्य धर्म नैतिकतानां मार्गेषु अनुकरणस्य प्रेरणां प्रददाति। प्रशासनेन विगतवर्षे प्राकृतिकापदा समस्याग्रस्तेभ्यः बिहार हिमाचल प्रदेश तमिलनाडु पुद्दुचेरी राज्येभ्यः 80,200,000 कोटिरूप्यकाणाम् अतिरिक्त धनसहायता प्रदत्ता। गृहमन्त्रालयः एकस्मिन् वक्तव्ये अवदत् यत् विपत्त्याः अनन्तरं तत्क्षणमेव औपचारिकस्य ज्ञापनपत्रस्य प्राप्तेः प्रतीक्षां विना सर्वकारः एतेषु राज्येषु अन्तामन्त्रालयीयं केन्द्रीयदलं प्रति नियुक्तवान्। दिल्ली प्रशासनम् आयुष्मान् भारत प्रधानमन्त्री जनारोग्य योजनायाः कार्यान्वयनार्थं केन्द्रेण सह सन्धिपत्रं हस्ताक्षरितवत्। अस्य मासस्य 10 दिनांकात् प्रपत्रवितरणस्य आरम्भो भविष्यति। केन्द्रीय गृहमन्त्री अमितशाहः पुनरुद्घाटितवान् यत् आगामि वर्षस्य मार्च मासान्तं यावत् छत्तीसगढराज्ये नक्सलवादस्य समाप्तिः भविष्यति। आईपीएल प्रतिस्पर्धायां गतसायं राजस्थान रॉयल्स दलेन पंजाब किंग्स दलं 50 धावनांकैः पराजितम्। इति वार्ताः।